सर्वेभ्यो नमः। अत्र गीतासोपान वर्गे गतवर्गे वयम् एकां कथां पठितवन्तः। तां कथामेव अद्य अपि समापयित्वा अग्रे गच्छामः इति मन्ये। तत्र कथा आसीत्, सर्वेषां समीपे कथा अस्ति वा? तत्र भगवतः सृष्टौ न सन्ति दुष्टाः इति कथा।
आम् महोदय।
अस्तु, हा, तत्र पुनरेकवारं यत् पठितवन्तः तदेव पङ्क्तिशः पुनरेकवारं पठामः, अतः अवगमनं सम्यक् भवति इति। अस्तु, तत्र शोभा भगिनी आरम्भं करोति वा?
आम् महोदय।
प्रथमपरिच्छेदः।
काचित् कक्ष्या अध्यापकः ईश्वरनिन्दकः, सः कदाचित् अवदत् ईश्वरः पक्षपाती, तस्य सृष्टिः न श्रेष्ठा, सज्जनान् इव दुर्जनानपि सृजति सः। सः निष्पक्षपातव्यवहारवान् यदि स्यात् तर्हि दुष्टानां सृष्टिं निवारयितुम् अशक्षत् एव।
किञ्चित् वदति वा भगिनी तत्र किमस्ति इति? तत्र
आम् महोदय,
केवलं यद् अवगच्छति।
एकः अध्यापकः ईश्वरनिन्दकः अस्ति, सः देवस्य सृष्ट्याः कृते इति चिन्तयति। ईश्वरः पक्षपाती अस्ति, किमर्थं चेत् तस्य अपि सः चिन्तयति तस्य सृष्टिः श्रेष्ठा नास्ति, किमर्थं चेत् देवः सज्जनान् अपि दुर्जनान् अपि सृजति, निष्पक्षपातव्यवहारवान् यदि देवः आसीत् चेत् दुष्टानां सृष्टि न करोति, अथवा
दुष्टाः लोके न भवन्ति
अथवा दुष्टानां निवारयति।
दुष्टानां सृष्टिं निवारयति,
तस्य कर्तुं सः देवः अशक्ष्य अस्ति, तदर्थं सः पक्षपाती अस्ति।
तत्र अस्तु, हा, समीचीनम् अस्ति भगिनि, किन्तु तत्र अन्तिमभागे किञ्चित् तत्र रघुपतिमहोदय
निवारयितुम् अशक्ष्यत् एव।
तत्र रघुपतिमहोदय तत्र अन्तिमभाग तत्र किञ्चित् वदति वा? सः निष्पक्षपातव्यवहारवान् इत्युक्ते किमिति?
निष्पक्षपातव्यवहारवान् इति निष्पक्षव्यवहारं न करोति। यदि सः निष्पक्षपाती अस्ति चेत् सः दुष्टजनानां दुष्टत्वं निवारयति एव, परन्तु
तत्र दुष्टानां सृष्टिं निवारयितुम् अशक्ष्यत्। तत्र अशक्ष्यत् इति इत्युक्ते किम्?
अशक्ष्यत् अशक्ष्यः इति लङ्लकाररूपमस्ति महोदय तत्र
अपठत्
किमर्थम् अशक्ति इति दत्तमस्ति?
अशक्ष्यत् इत्युक्ते किं? शक्तिः अस्ति तस्य, सः कृतवान् एव, अकरोत्,
शक्ति अस्ति चेदपि नहि न कृतवान्
अशक्षत् अशक्षत् इति कुड् हाव् डन् इट्
अशक्ष्यत्
लङ्लूप लङ्लकाररूपम् अस्ति
शक्नोति
इति न तु नेगेटिव्
न शक्नोति इति न
न शक्नोति इति न अशक्ष्यत् इति अस्ति अस्तु
हा तत्र आ इत्युक्ते आ इत्युक्ते न कर्तुम् इति न किन्तु
न न अत्र
हा कर्तुं शक्नोति किन्तु न कृतवान् इति सत्यं महोदय शुभभगिनी सत्यं समीचीनं वा
समीचीनं महोदय
महोदय शक्ष्यत् अशक्ष्यत् लट् लकाररूपम् न न लट् लकाररूपं कथं वदामः
अहं चिन्तयामि शक्नोति इति
ओ शक्नोति अपि
तादृशं तदेव पदमिति न किन्तु अर्थ समानार्थकपदम् अस्ति तत्र लट् लकारे शक्नोति
ओके
अशक्ष्यत् इत्युक्ते सः कर्तुं शक्नुवान् किन्तु न कृतवान् इति अत्र
महोदय शक्ष्यत्
तत्र एतत् रूपं वयं वयं न कृतवन्तः भगिनि
आगच्छति भविष्यत्काले
न न न अत्र
अत्र नास्ति पक्ष्यति प्रक्ष्यति इति
हा एतत् एतद् लकारः किञ्चित् भिन्नः अस्ति तद् लङ्लकार इति चिन्तयतु किन्तु लङ्लकार नास्ति हा तत्र अभविष्यत् इति तादृशः तत्र अन्य अन्य लकारः अस्ति इदानीं मास्तु किन्तु
इदानीं
तत्र तत्र अभवत् इति न भविष्यति इति न अभविष्यत् इति तादृशरूपम् अस्ति
किं किं लकार अस्ति महोदय
हा तत् तस्य नाम न स्मरामि किन्तु एतत् अस्तु अस्तु
पठति चेत्
हेतुवाद
हेतु अस्ति
इदानीम् अस्तु केवलम् अत्र अत्र अस्माकम् अवगमनं किम् इत्युक्ते तत्र सः कर्तुं
शक्नोति चेदपि
न करोति इति तादृशरूपं
निवारयितुं महोदय
निवारयितुं तत्र दुष्टानां सृष्टिं निवारयितुं रघुपतिमहोदय निवारयितुम् इत्युक्ते
निवारणं कर्तुं निवारयितुं तुम्बुन् प्रत्यय निवारणम् इति तदन्
महोदय अत्र अध्यापकस्य चिन्तनम् इति कारणेन अस्ति सः चिन्तयति सज्जनाः दे सफर् बिकास् आफ् दुर्जनाः तथापि देवः दुर्जनान् न निवारयति सज्जनान् रक्षणं कर्तुं
सज्जनानां रक्षणं सः कर्तुं शक्नोति दुष्टानां निवारणं
निवारयित्वा न निवारयति अतः सः पक्षपाती अस्ति इति
सत्यं 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 भगिनि तत्र पूर्वं वाक्यमासीत् अध्यापकः ईश्वरनिन्दकः सः किमर्थं निन्दकः इति अत्र उच्यते खलु कारणं सः किमर्थम् ईश्वरनिन्दकः इति कारणम् अत्र उक्तमस्ति सत्यं भगिनि अस्तु अस्तु इदानीम् अध्यापकः कीदृशः इति ज्ञातवन्तः अस्तु अग्रे सरामः सः वर्गे किं करोति इति पश्यामः अस्तु अग्रे उषा भगिनी वदति वा
आं महोदय तावता छात्रेषु कश्चन उत्थाय अवदत् श्रीमन् भगवता दुष्टाः न सृष्टाः एव कथम् एवं वदति भवान् लोके असङ्ख्याः दुष्टाः दुष्टाः ये दृश्यन्ते ते केन सृष्टाः भगवता एव ननु अध्यापकः प्रतिप्रश्नम् अकरोत्
इदानीं किम् अस्ति इति किञ्चित् वदतु भगिनि
तावता छात्रेषु कश्चन उत्थाय अवदत् छात्रेषु कश्चन उत्थाय अवदत् प्रश्नं पृच्छ कश्चन
अत्र अध्यापकः कदाचित् अवदत् इत्युक्ते एकदा सः अवदत् वर्गे वर्गे कक्ष्यायां सः एतत् अवदत् अतः तदनन्तरं किम् अभवत् छात्रेषु
कश्चन उत्थाय प्रश्नं
पृच्छवन् अवदत् इत्युक्ते केवलम् उक्तवान्
हे श्रीमन् प्रथम सम्बोधन भगवता दुष्टाः न सृष्टाः एव भगवता दुष्टाः न सृष्टाः एव
भगवता इत्युक्ते तृतीया विभक्ति
दुष्टाः न सृष्टाः एव
भगवान् दुष्टान् न सृष्टवान्
इति कथम् एवं वदति भवान् कथम् एवं वदति भवान् सो
अध्यापकः पृच्छति छात्रं
कथम् एवं वदति भवान्
तत्र कः पृच्छति एतद्
देवः अस्ति न महोदय
न अत्र प्रश्नः कथम् एवं वदति भवान् इति प्रश्नं कः पृच्छति
छात्रः पृच्छति
न अध्यापकः पृच्छति छात्रः केवलम् एतद् वदति श्रीमन् भगवता दुष्टाः न सृष्टाः एव तावदेव
कथम् एवं वदति भवान्
इति अध्यापकः पृच्छति
लोके सङ्ख्याः दुष्टाः ये दृश्यन्ते ते केन सृष्टाः लोके असङ्ख्याः यदि असङ्ख्याः दुष्टाः ये दृश्यन्ते
तत्र छात्रः किं वदति भगवता दुष्टाः न सृष्टाः एव इत्युक्ते भगवान् कोऽपि दुष्टं न सृष्टवान् इति अतः अध्यापकः किं पृच्छति अस्तु एतदस्ति चेत् वयं तु अनेकाः दुष्टाः अनेकान् दुष्टान् लोके पश्यामः खलु अतः असङ्ख्याः दुष्टाः ये दृश्यन्ते इत्युक्ते दोस् केन् बि सीन् इति ते इत्युक्ते ते दुष्टाः
देवः अपि
ते अपि भगवता एव सृष्टाः खलु
भगवान् सज्जनान् दुर्जनान् न सृष्टवन्त
भगवता एव ननु इति अतः ते अपि भगवान् एव तान् अपि सृष्टवान् खलु अतः किमर्थम् एतत् एतादृशं वचनं करोति भवान् इति अध्यापकः पृच्छति प्रतिप्रश्नं करोति
अध्यापकः प्रतिप्रश्नं अकरोत्
समीचीनं भगिनि
आं महोदय
अस्तु अग्रे तत्र नरेश महोदय अग्रे वदति वा
ते भगवता एव सृष्टाः इति तु सत्यं किन्तु ते सृष्टाः न दुष्टत्वेन छात्रः अवदत् ते भगवान् तानि अपि
सृष्टवान्
परन्तु ते दुष्टवान् नास्ति
ते दुष्टाः न सन्ति इति वा
दुष्टाः न आसन्
दुष्टाः न आसन् हा अस्तु सृष्टिसमये दुष्टाः न आसन् इति वा
विलक्षणः वादः तव दुष्टत्वेन न सृष्टाः इत्यस्य कः आशयः तेषां स्रष्टा ईश्वरः एव इत्यतः तेषु स्थिताः दोषाः अपि ईश्वरकारणात् एव आगताः ननु अध्यापकः अवदत् तव वादः सम्यक् नास्ति विलक्षणः अस्ति
विलक्षणः इत्युक्ते सम्यक् इति न विलक्षण इत्युक्ते साधारणवादः नास्ति किञ्चित्
स्ट्रेञ्ज् अस्ति
हा तादृश हा किञ्चित् विचित्रम् अथवा किञ्चित् हा अवगन्तुं न शक्नुमः इति तादृश हा तत् सत्यं भवेत् किन्तु किमर्थम् इति तस्य कारणं तस्य अर्थः सुलभतया न अवगन्तुं शक्नुमः
दुष्टत्वेन न सृष्टाः इत्यस्य कः आशयः ते दुष्टाः न आसन् परन्तु भगवान् सृष्टवान् अस्य कः आशयः कः
तत्र दुष्टत्वं दुष्टत्वेन इति पदम् अस्ति तत् तृतीयविभक्ति अस्ति प्रथमविभक्तिरूपं किम् अस्ति दुष्टत्वेन इति
प्रथमविभक्ति
दुष्टत्वं दुष्टत्वम् इत्युक्ते तस्य भावः दुष्टस्य भावः सुन्दरत्वं पुस्तकत्वं सौन्दर्यं उष्णत्वम् औष्ण्यं तादृशं तत्र भावः इति वदामः दुष्टे यः भावः अस्ति यत् तं केन सः दुष्टः भवति तस्य भावः दुष्टत्वम् इति वदामः छात्रः वदति भगवान् जनान् सृष्टवान् किन्तु तेषु दुष्टत्वं यत् अस्ति इति मन्ये इति तस्य वाक्यं दृष्ट्वा तादृशं सः वदति इति मन्ये अतः एषः पृच्छति
परन्तु
तेषां स्रष्टा ईश्वरः एव इत्यतः इति अस्ति चेत्
अध्यापकः छात्रस्य आशयः न अवगतवान्
सत्यं सत्यम् अत्र तेषां स्रष्टा इति तेषाम् इति केषां
भगवत
न तेषां स्रष्टा
दुर्जनाः
दुर्जनानां दुर्जनानां स्रष्टा दुष्टानां स्रष्टा ईश्वर अस्ति एव अस्ति चेत् तेषु इत्युक्ते केषु दुर्जनेषु ये दोषाः दुर्जनेषु सन्ति
अपि
ते अपि
कारणात् एव आगताः ननु
ते अपि
भगवान्
ईश्वर एव तान् दोषान् अपि कृतवान् खलु इति
श्रेष्ठवान् अपि
समीचीनं वा महोदय
आम् महोदय
अपि ईश्वरकारणात् एव इत्युक्ते ईश्वर एव तान् तेषां दोषाणां कारणः ईश्वरः एव इत्युक्ते सः एव दोषान् सृष्टवान् इति ईश्वरतः एव दोषाः अपि आगताः ईश्वरकारणात् एव दोषाः अपि आगताः ननु इति वंशी सुधा भगिनी नमस्कारः अन्य कोऽपि अस्ति वा
नमस्ते महोदय
नमस्कारः अन्य कोऽपि नूतनतया आगतवान् वा आगतवती वा सूर्यकुमारी भवती तु पूर्वमेव आसीत् अन्य कोऽपि अस्ति इति मन्ये अस्तु अस्तु अग्रे गीताञ्जलि भगिनी अग्रे पठति वा
आं महोदय श्रीमन् लोके अन्धकारः अस्ति इत्यत्र किं भवान् विश्वसिति न यतः मया अपि तर्कशास्त्रं पठितम् अस्ति प्रकाशस्य अभावः एव अन्धकारः अतः अन्धकारनामकः पदार्थः पार्थक्येन नास्ति
तावत् तत्र किम् अस्ति
छात्रः वदति श्रीमन् हे श्रीमन् लोकस्मिन् अन्धकार अस्ति सप्तमी महोदय अस्मिन् लोके अन्धकारः अस्ति इति अत्र किं भवान् इति भवान् चिन्तयति अस्तु चिन्तयति वा
भवतः चिन्तनं किं लोके अन्धकारः अस्ति न वा इति विचारे भवतः चिन्तनं किम् अस्ति इति सः पृच्छति
अध्यापकः उक्तवान् न यतः मया अपि तर्कशास्त्रं पठितम् अस्ति
तत्र तद् किम् अहमपि
अहमपि तर्कशास्त्रं पठितवान्
अस्मि
तदनन्तरम् अहम् अवगन्तुं प्रकाशस्य अभावः एव अन्धकार यत्र यत्र प्रकाश न भवति तत्र अन्धकारः अस्ति
वयं जानीमः तत्र प्रकाशः अस्ति चेत् अन्धकारः न भवति अन्धकारः यत्र यत्र प्रकाशः नास्ति तत्र एव अन्धकारः अस्ति इति जानीमः अतः
अन्धकारः नामकः किमपि एकं पदार्थः नास्ति
अभावः इत्युक्ते यत्र किमपि नास्ति इति तदेव अभावेन अभाव इति पदेन वदामः अतः अन्धकारः इति पदार्थः नास्ति केवलं प्रकाशः नास्ति इति सूचयति किन्तु तद् किमपि अन्यत् किमपि अस्ति इति तु न खलु इति सः वदति तत्र वयं चिन्तयामः एतद् रक्तवर्णम् अस्ति न एतद् रक्तवर्णं न एतद् नीलवर्णम् इति अस्ति चेत् तत्र रक्तवर्णमपि अस्ति नीलवर्णमपि अस्ति किन्तु तादृश अत्र अस्ति वा
न महोदय
तत्र पदार्थद्वयम् अस्ति रक्तवर्णमपि अस्ति नीलवर्णमपि
अस्ति किन्तु अत्र केवल एक पदार्थ अस्ति
प्रकाश एव अस्ति तस्य तद् नास्ति चेत् वयम् अन्धकारः इति वदामः किन्तु तद् भिन्नम् अस्ति तद् नीलवर्णं रक्तवर्णं तादृशं सम्बन्धः अत्र नास्ति समीचीनं भगिनि अस्तु अग्रे रघुपतिमहोदय वदति वा
नास्ति शैत्यनामकपदार्थस्य विषये भवतः अभिप्रायः कः? शैत्यम् इत्युक्ते किम् इति?
शैत्यम् इति पदार्थः अस्ति, तस्य विषये
अस्ति विषये भवतः अभिप्रायः कः? इदानीं कः पृच्छति एकनिमिषम्, अध्यापकः पृच्छति,
न
न छात्रः एव पृच्छति. अस्तु,
श्रीमन् इति वाक्यं छात्रेण पृष्टं, तदनन्तरं न, यतः मयापि तर्कशास्त्रं पठितम् अस्ति इति तद्
छात्रः पृच्छति इदानीं.
महोदय एकः प्रश्नः, महोदय इति प्रश्न छात्र छात्रमन्ये शैतव्यं पदार्थः अस्ति इति मन्ये,
तदनन्तरं पदार्थस्य विषये
किन्तु अत्र छात्र इति न वदति शैत्यं पदार्थः अस्ति इति न वदति.
तत्र एतत् चिन्तयतु, शैत्यविषये भवतः अभिप्रायः कः इति तावदेव.
अभिप्रायः
ओपिनियन्
चिन्तनम्
अभिप्रायः. एषा कथा अस्ति, कथायाः विषये भवत्याः अभिप्रायः कः इति तादृशं. महोदय
शैत्यमपि न पदार्थः, यत्र उष्णता न भवति तत्र दृश्यते शैत्यम्, अतः उष्णतायाः अभावः एव शैत्यपदेन निर्दिश्यते, सः पृथक् पदार्थः न इति अध्यापकः वदति. अध्यापकः एव वदति वा? अस्तु,
शैत्यमपि पदार्थः न, अन्धकारः पदार्थः न, तथैव शैत्यमपि पदार्थः न, केवलम् अभावः.
लोके यथा अन्धकारनामकः शैत्यनामकः वा पदार्थः नास्ति, तथैव दुष्टा अपि न सन्ति एव भगवता सृष्टौ. यथा अन्धकारनामकपदार्थः नास्ति, शैत्यनामकपदार्थः नास्ति, तथा एव दुष्टाः अपि न सन्ति एव भगवतः सृष्टौ. भगवतः सृष्ट्यौ, भगवतः
इति
सृष्टौ सप्तमी विभक्ति, भगवतः षष्ठी विभक्ति, भगवतः सृष्टौ
नास्ति इति. हा, समीचीनं महोदय, धन्यवादः. हा, अस्तु, अग्रे वंशी सुधा भगिनी वदति वा?
आं महोदय,
ये दुष्टाः
लोके दृश्यन्ते तेषां सृष्टिकर्ता किम् अन्यः एव? क्रोधेन अपृच्छत् अध्यापकः. छात्रः यत् वदति तत् तदनन्तरम् अध्यापकः पृच्छति, लोके सर्वे जनाः ये दुष्टाः सन्ति ते सृष्टिकर्ता कः इति क्रोधेन वदति पृच्छति अध्यापकः.
छात्रः किम् उक्तवान् तत्र? दुष्टाः न सन्ति एव, भगवतः सृष्टौ, भगवान् दुष्टान् न सृष्टवान् इति, दुर्जनान् न सृष्टवान् इति. अतः किन्तु वयं लोके पश्यामः खलु, दुष्टजनाः सन्ति इति वयं जानीमः, पश्यामः. अतः
अध्यापकः
दुष्टानां
किं
सृष्टिकर्ता कः? अन्य ईश्वरः नास्ति चेत् अन्य कोऽपि सृष्टिकर्ता वा इति.
आम् महोदय, लोके वस्तुतः सन्ति सर्वे सज्जनाः एव. छात्रः वदति लोके सर्वे सज्जनाः एव भवन्ति, परन्तु स्नेहस्य करुणायाः अनुकम्पस्य वातावरणस्य
संस्कारस्य
क्षम्यतां वातावरणस्य संस्कारस्य शिक्षणस्य प्रबोधनस्य च अभावात् केचन दुष्टतां प्राप्नुयुः. स्नेह सर्वे षष्टि विभक्तौ अस्ति महोदय. स्नेहस्य अभावः अथवा करुणायाः अभावः अनुकम्पस्य अहं न जानामि महोदय. अनुकम्पस्य इत्युक्ते
अनुकम्प कोऽपि वदति वा अनुकम्प इति
अनुकम्पस्य अभावः वातावरणस्य वातावरणस्य इति अपि अहं न जानामि महोदय.
वातावरणम् इति तत्र
एन्विरान्मेण्ट्
बट् तत् भावः अस्ति वा महोदय वातावरणस्य
सराउण्डिङ्ग् वातावरणम् इत्युक्ते तत्र किम् अस्ति सम्यक् वातावरणम् अस्ति
अड्जस्ट्मेण्ट् टु द एन्विरान्मेण्ट्
अड्जस्ट्मेण्ट् नास्ति भगिनि तत्र
supporting people and family in this
environmental influence
tatra kim asti tatra angla bhashayam yat vadati bharat asti
surrounding
surroundings ha tadrusham ha tadrusham
yat
ha
samskara bhavah ityu samskara bhavah
samsarga samsargasya
samskarasya
संस्कारः
नास्ति
तत्र तदपि वातावरणसम्बद्धम् अस्ति संस्कारः इत्युक्ते
शिक्षणस्य अभावः प्रबोधनस्य अभावः प्रबोधनः इत्युक्ते उत्तमप्रबोधः च अभावः अस्ति केचन दुष्टाः प्राप्नुयुः येन ये स्वभावः केचन न सन्ति ते दुष्टाः
यदि तेन सह कोऽपि अथवा यदि कोऽपि अस्ति तेन सह कोऽपि स्नेहेन न आचरणं करोति अथवा करुणया तान् तं न पश्यन्ति सः कुत्रापि अनुकम्पा न प्राप्तवान् वातावरणं यत्र सः तस्य जननं जातं तत्र अन्ये सर्वे दुष्टाः एव सन्ति चेत् सः मनसि उत्तममनः अस्ति चेत् अपि सः दुष्टः भवितुं तत्र तस्मिन् दुष्टता आगन्तुं शक्नोति खलु. अतः अभावात् स्नेहस्य एतादृशानाम् अभावात् दुष्टता आगच्छति दुष्टतां प्राप्नुयुः. समीचीनं भगिनि समीचीनं धन्यवादः. अत्र भानुचैतन्य महोदय अग्रे वदति वा.
हरि ओं महोदय शुभोदय
विलम्बने
आगतं किञ्चित् अनन्तरं वदामि महोदय.
अस्तु 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 तत्र सूर्यकुमारी भगिनी वदति वा अद्य अस्तु अग्रे तत्र स्नेहादिना
परिष्कृताः चेत् तेपि उत्तमाः एव भवेयुः. अतः
तेषु
दुष्टतायाः यत् कारणं स्यात् तत् अपनेतव्यम् आदौ तदा लोके दुष्टता एव न भवेत् भगवता तु उत्तमाः एव सृज्यन्ते.
तत्र किमस्ति
स्नेहादिना परिष्कृताः
स्नेहेन इति तादृश स्नेहेन व्यवहारः कुर्मश्च सर्वे स्नेहेन व्यवहारः कुर्वन्ति चेत् दुष्टाः अपि उत्तमः भवितुं शक्नुवन्ति
चेत् ते अपि उत्तमाः एव भवेयुः दृष्टाः अपि उत्तमाः एव
एव भवितुं शक्नुवन्ति.
अतः
तत्र दुष्टः इत्युक्ते सः दुष्टः इति तादृ तदनन्तरं किमपि न भवति इति न खलु. वयं पुराणे बहुत्र पश्यामः खलु, देवाः सन्ति दुष्टाः भवन्ति, इन्द्रः अस्ति सः किमपि करोति दुष्टः भवति, तदनन्तरं तपस् करोति तदनन्तरं पुनः इन्द्रपदवीं प्राप्नोति इति. अतः तत्र दुष्टः इत्युक्ते पर्याप्तं, सः दुष्टः इति तादृशः नास्ति, तत्र परिवर्तनम् अपि भवितुं शक्नोति. यथा वयम् अन्या कथा अपि अस्ति खलु, वाल्मीकेः कथा अस्ति खलु, तत्र
स्नेहेन परिवर्तनं प्राप्तुं शक्यते
अतः तेषु दुष्टतायाः यत् कारणम्
अतः तेषु दुष्टतायाः
तत्र पूर्वं वयं दुष्टत्वम् इति दृष्टवन्तः, इदानीं दुष्टता इति तदपि भावः एव अस्ति. दुष्टत्वम् इति एकं पदं, दुष्टता अपि अन्यत् पदं, किन्तु द्वयमपि भावं सूचयति.
दुष्टतायाः यत् कारणं स्यात् तत् अपनेतव्यम्
आदौ. दुष्टता तत्र न भवेत् इति चिन्तयामश्चेत् तस्य निवारणं कथं कर्तुं शक्नुमः? तस्य कारणं दृष्ट्वा
स्यात् तत्
कारणं यदि तद् तस्य अपनेतव्यं भवति, यदि तद् तस्य निवारणं कुर्मः, कारणस्य निवारणं भवति चेत् दुष्टतायाः निवारणमपि भवति. अपनेतव्यम् इत्युक्ते तदपि निवारणम् निवारणीयम् इति.
आदौ
प्रथमतया तत् करणीयं, तदनन्तरं दुष्टता अपि अपगच्छति इति.
तदा लोके दुष्टता एव
दुष्टता एव
न भवेत्
भगवता
तु उत्तमाः एव सृज्यन्ते.
भगवान् केवलम् उत्तमान् एव सृष्टवान् इति. समीचीनं भगिनि, धन्यवादः. अस्तु
महोदय, प्रश्नः निष्ठा दिना इत्युक्ते किं पदमस्ति महोदय? विभक्ति अस्ति वा?
कुत्र?
स्नेह अनुकम्प इत्यादि
इत्यादीना इत्युक्ते तृतीया इति मन्ये. तृतीयरूपं तेन अथवा तया इति स्नेहया अथवा स्नेहेन अथवा करुणया अनुकम्पेन इति.
महोदय, दुष्टता इति शत्रुपदम् अस्ति महोदय? तृतीयविभक्तौ अस्ति महोदय.
दुष्टता इति भावम् अस्ति, दुष्टत्वं
दुष्टत्वं
तत्र सुन्दरः तस्य भावः, सौन्दर्यम् इति अस्ति, सुन्दरत्वम् इति अस्ति, अपि सुन्दरता इति
दृष्टता गुणः,
दुष्टता इति भावः.
प्रातिपदिकं किं भवति महोदय? दुष्टः एव भवति महोदय प्रातिपदिकं.
दुष्टत्वम् इति प्रातिपदिकं तत् लिङ्गं दुष्टत्वम् अत्र दुष्टता इति आकारं तस्य लिङ्गपदम् सुन्दरता इति स्त्रीलिङ्गरूपं
स्त्रीलिङ्गरूपं
यथा वयं सूत्रे श्रुत्वं त्वं तदपि एव भावपदम् अस्ति
किं किं
त्व सफिक्स्
दुष्टत्वं सत्यं तत्र त्वम् इति तत्र भावः इति भवति अपि एतदपि एतादृशरूपमपि अस्ति सत्यम्
अस्तु अस्तु
अस्तु अग्रे कः एतावत् न उक्तवान् मधुसूदन महोदय किञ्चित् वदति वा अत्र
अस्तु
हा 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 चिन्ता मास्तु महोदय अत्र अन्तिमभागः सोद्वेगम् इति
सोद्वेगं वदतः तस्य किशोरस्य आत्मविश्वासपूर्णं मुखं निर्निमेषम् अपश्यत् अध्यापकः तस्य मुखात् प्रतिवचनं किमपि न निर्गतम्
तत्र किमस्ति अध्यापकः किं किम् अपश्यत्
अविश्वासपूर्वं
You mean the cooked one?
No, they need some fresh parsley in the herb garden. It's the one in the front. That's a little taller.
Tatra, Madhusudan Mohdiya, kinchit uchayike vadatu Mohdiya, Tatra?
Next to the... next to that...
Ninnimesham apashan.
Nashruyate. Mohdiya, Madhusudan Mohdiya, kinchit uchayike vadatu Mohdiya, Tatra. Adhyapakah apashyat. इति आरभ्य अध्यापकः अपश्यत् किम् अपश्यत् मुखम् अपश्यत् मुखम् अपश्यत् अध्यापकः मुखम् अपश्यत् छात्रस्य मुखम् अपश्यत् खलु हा तत्र निर्निमेषम् इति अस्ति निर्निमेषम् इत्युक्ते किं
विदौट् ब्लिङ्किङ्ग्
तानेव दृष्टवान् हा अस्तु अस्तु तत्र कीदृशमुखं
विश्वासपूर्णं
हा आत्मविश्वासपूर्णं सत्यं भगिनि हा मधुसूदन महोदय आत्मविश्वासपूर्णं मुखं हा तत्र वदतु महोदय अध्यापकः निर्निमेषम् अपश्यत् इदानीं कस्य मुखं किशोरस्य मुखं छात्रस्य मुखं कीदृशछात्रः सः सः वदति खलु सः वदति वदति हा तादृशछात्रः तं दृष्ट्वा तस्य मुखं सः अपश्यत् तत्र सः वदति वदतः इति षष्टिविभक्तिः अस्ति खलु किशोरस्य वदतः तस्य तदनन्तरं किशोरस्य आत्मविश्वासपूर्णं मुखं निर्निमेषम् अपश्यत् अध्यापकः सोद्वेगम् इत्युक्ते स उद्वेगम् उद्वेगम् इत्युक्ते अन्य कोऽपि वदति वा उद्वेगम् इत्युक्ते अजिटेशन् किन्तु तत्र अजिटेशन् तत् सम्यक् नास्ति खलु महोदय उद्वेगः एन्थुसियासम् अथवा एक्सैटेड् तादृश उद्युक्तः
with intensity mahodaya with intensity
ha kintu sanskruti sanskrutena anyat padam kimapi vaktum shaknat kopi vaktum shaknati ma udyuktah iti chintayami tad api aktum atra vaktum shaknumah udyuktah balakah iti ha kintu ha tatra sa udvegam balakah vadatah balakah tam tasya mukham अध्यापकः पश्यति तदनन्तरं किं महोदय तस्य तस्य मुखात् इदानीं कस्य मुखात् तस्य इत्युक्ते कस्य छात्रम् अध्यापकः पश्यति किन्तु तस्य इत्युक्ते अध्यापकस्य
तस्य मुखात् प्रतिवचनं किमपि न निर्गतम्
इत्युक्ते
निर्गतं
न गतं न आगतं न आगतं बहिः न आगतं प्रतिवचनं प्रतिवचनम् इत्युक्ते प्रत्युत्तरं छात्रः छात्रः एतादृश दीर्घः वाक्यम् उक्तवान् खलु लोके वस्तुतः सन्ति सर्वे स जनाः एव इति तत्र आरभ्य सृज्यन्ते इति तावत्पर्यन्तं दीर्घवाक्यं छात्रः उक्तवान् तदनन्तरं किम् अध्यापकः तं पश्यति किमपि सः वक्तुं न शक्नोति अतः तस्य मुखात् प्रतिवचनं किमपि प्रतिवचनं न निर्गतम् समीचीनं वा महोदय अवगच्छति वा तस्य इत्युक्ते अध्यापकस्य मुखात् इति अन्तिमवाक्यं वद तत्र उक्त्वा समापयतु महोदय
सः किशोरः एव अग्रिमे अग्रिमकाले स्वामी विवेकानन्दः इति ख्यातः अभवत्
सः
किशोरः छात्रः एव अग्रिमे काले अनन्तरं इति बहु ख्यातिः
ख्यातः अभवत् प्रसिद्धः सः सः एव यः प्रसिद्धः स्वामी विवेकानन्दः इति जानीमः एषः एव अत्र छात्रः अस्यां कथायां यः छात्रः अस्ति सः एव स्वामी विवेकानन्दः इति प्रसिद्धः तत्र अन्या अन्ये वर्गे तत्र वयम् अग्रिमे काले इति तस्य तद् अन्यरीत्या वक्तुं दृष्टवन्तः भाविनी काले इति तदपि अत्रापि वक्तुं शक्नुमः भाविनी काले सः एव स्वामी विवेकानन्दः इति ख्यातः अभवत् इति अस्तु इदानीं तत्र यः प्रश्नः अत्र छात्रः पृष्टवान् तादृशप्रश्नम् अत्र वयमपि कर्तुं शक्नुमः अस्यां कथायां विषये कः अभिप्रायः अस्तु अस्तु इदानीम् अग्रे गच्छामः तत्र सप्तमीविभक्ति षष्टिविभक्ति अनेकान् विचारान् दृष्टवन्तः तत्र अस्तु प्रयोगः जातं तत्र अस्तु इदानीं तत्र अग्रे गच्छामः इदानीम् अस्ति चिन्तयामि कथा इति प्रायशः तत्र द्विसप्ततितमे पुटे कृष्णः कदा उत्तिष्ठति इति अस्ति तद् बहु सरलमस्ति तद् कृत्वा अग्रे अपि गन्तुं शक्नुमः इति मन्ये अद्य श्वः इति तत्र अस्तु भानुचेतनी महोदय इदानीं भवान् पठितुं शक्नोति वा? अस्तु, तत्र द्विसप्ततितमे पुटे सप्ततितमे पुटे
महोदय
क्षम्यता महोदय, कथा अभवत् वा महोदय?
कृष्णः कदा उत्तिष्ठति?
महोदय कृष्णः कदा उत्तिष्ठति?
महोदय एकः मूलः प्रश्नः, कदायां बालकः नाम किशोरः अस्ति, परन्तु किशोरः
बालकस्य नाम किशोरः न
काले सः किशोरः एव
किशोरः
बालः
ओ
तावदेव
अस्तु अस्तु मम
प्रश्नः नाम किशोरः
नरेन्द्र अस्ति
नरेन्द्रनाथ
अतः चिन्तयामि
नरेन्द्रनाथ अथवा केवलं नरेन्द्र
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 अस्तु 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 महोदय धन्यवादः
अस्तु भानुचेतनी महोदय तत्र किञ्चित् एव तत्र पठतु तत्र कृष्णः कदा उत्तिष्ठति इति
कृष्णः कदा उत्तिष्ठति पश्यत उच्चैः पठत अवगच्छत च द्वे चित्राणि सह कदा
द्वे चित्रे
सूर्यः कदा
द्वे चित्रे
द्वे चित्रे सूर्यः कदा उदेति प्रातः सूर्यः उदेति सूर्यः कदा अस्तम् एति सूर्यः सायम् अस्तम् एति
इति तत्र कदा इत्युक्ते प्रश्नवाचकः कस्मिन् समये इति कस्मिन् समये भवति अस्तं सन्सेट् सेट् उदयः अस्तं
सूर्यास्तं
यथा दहि अस्तं
दहि अस्तं
दहि अस्तं न जानामि भगिनि
दहि
किन्तु
अस्तम् इत्युक्ते न भवति
किन्तु सूर्यास्तम् इति यत् प्रसिद्धः अस्ति तत् तावत् सूर्यास्तम् अस्तु तत्र कदा इति सम्भाषणमस्ति बालः अस्ति माता अस्ति अत्र सूर्यकुमारी भगिनी भवती माता करोति वा अन्य कः तत्र मधुसूदन मोदी अस्ति खलु अस्तु मधुसूदन मोदी भवान् एव बालः
स एव कृष्णः अपि
मधुसूदनः अतः अस्तु अस्तु मधुसूदन मोदी आरम्भं करोतु सूर्यकुमारी भगिनी
अम्ब कृष्णः कदा उत्तिष्ठति
सूर्यकुमारी भगिनी अस्ति वा
महोदय
अस्तु अस्तु भगिनि क्षम्यतां वदतु भगिनि
वत्स कृष्णः उष्णकाले उत्तिष्ठति
उष्णकाले
प्रातः एव स्नाति
अम्ब कृष्णः कदा धेनुः धारयति
प्रातराशनानन्तरं
धेनुः चारयति
सः कदा भुङ्क्ते
सः धेनुचारणानन्तरं भुङ्क्ते
कृष्णः कदा विश्राम्यति
सः उपराह्णे अपराह्णे वने एव विश्राम्यति
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 अम्ब सः कदा गृहम् आगच्छति
सायम् आगच्छति
अहं कृष्णस्य गृहं गच्छामि
अद्य मास्तु श्वः गच्छ
अम्ब कदा श्वः भविष्यति
इदानीं निद्रां कुरु ततः जागृहि जागरणानन्तरं श्वः भविष्यति
इदानीमेव
जागर्मि
इदानीमेव श्वः भवतु
वत्स इदानीमेव अद्य एव यः एव श्वः एव
तर्हि इदानीं शीघ्रं निद्रां करोमि
इति सम्भाषणमस्ति अस्तु इदानीं तत्र पश्यामः हा तत्र भानुचेतनी महोदय किञ्चित् वदतु तत्र
किं
बालः
किं वदामि महोदय
कदा इति उत्तिष्ठति इति
बालः एकः अस्ति सः
मातरं पृच्छति
पृच्छति किमपि पृच्छति सः अम्ब कृष्णः कदा उत्तिष्ठति माता हे वत्स प्रीतिकरेण वदति महोदय हे वत्स कृष्णः उषःकाल एव उत्तिष्ठति
उषःकाले इत्युक्ते
उषःकाले प्रातःकालपूर्वं महोदय सूर्यागमन सूर्य उदयपूर्वं सूर्योदयपूर्वं
इति चिन्तिते मन्ये महोदय सत्यं
उषासन्या महोदय बालः तर्हि प्रतिप्रश्नं करोति सः कदा स्नाति स्नानं कदा करोति माता वदति प्रातः एव सः स्नानं करोति
समीचीनं महोदय अस्तु अग्रे नरेश महोदय अग्रे
बालः पृच्छति मातरं पृच्छति कृष्णः कदा धेनुं चारयति
धेनुः इति अस्ति
धेनुः चारयति माता वदति प्रातःशानन्तरं धेनुः चारयति
इत्युक्ते किम् इति
प्रातः पश्चात्
ब्रेक्फास्ट् महोदय अशन भवितुमर्हति प्रातः अशनानन्तरम् इति किमपि टङ्कणदोषः अस्ति वा प्रातः अशनानन्तरम् अशनानन्तरं प्रातरस्ति विसर्गसन्धि अस्ति परन्तु अशनानन्तरम् इति भवति भवेत् तत्र टङ्कणदोषः अस्ति चिन्तयामि
तत्र
प्रातः अशनानन्तरं
केवलं
प्रातर् अशनानन्तरम् इति भवति भवेत् इति
दीर्घः
नानन्तरं भवेत्
अशननन्तरम् अशननन्तरम् अशन अनन्तरम् अशन अनन्तरम् अशनानन्तरम्
इति तत्तु अस्ति तत्र नरेश महोदय धेनुः इति विभक्ति का
धेनुः प्रथमविभक्ति बहुवचनं
किन्तु तत्र क्रियापदं किं
चारयति
कर्तृपदं
कृष्णः
चारयति कृष्णः किं चारयति कं चारयति
धेनुः
कर्मपदम् अस्ति खलु
धेनुः
इति कर्मपदमस्ति महोदय अस्तु हा समीचीनम् अग्रे महोदय
बालः वदति कृष्णः कदा भुङ्क्ते माता उत्तरं ददाति सः धेनुचारणान्तरं भुङ्क्ते
अनन्तरं सः धेनुः चारयति तस्य अनन्तरं
भुङ्क्ते भोजनं करोति
मध्याह्नभोजनम् इति प्रायशः
बालः वदति कृष्णः कदा विश्राम्यति विश्रामं कदा करोति माता वदति सः अपराह्णे वने एव विश्राम्यति
अपराह्णे मध्याह्नानन्तरं
अनन्तरं वने एव विश्रामं करोति
अपराह्णे मध्याह्ने
महोदय अत्र अशाना इति आफ्टर् एवेकिङ्ग् अति भवति वा अत्र किमर्थम् इति चेत् अनन्तरं कदा भुङ्क्ते इति प्रश्नः अस्ति न वर्ष प्रातरशानन्तरं धेनुचारयति कदा भुङ्क्ते इति अशन मीनिङ्ग् अस्ति वा किमपि अन्य धेनोः चारणानन्तरम् अस्तु अस्तु
धेनोः चारणानन्तरं भुङ्क्ते इति तत्र मध्याह्नभोजनं वा अथवा सायङ्कालभोजनम् इति मम मनसि प्रश्नः आसीत् किन्तु तत्र अपराह्णे वने एव विश्रम्यति इति अस्ति खलु भोजनानन्तरं
मध्याह्नभोजनम्
इति अस्तु अग्रे शोभा भगिनी वदति वा अग्रे
आं महोदय कृष्णः कुत्र महोदय कदा विश्रम्यति गृहम् आगच्छति अम्बा सः कदा गृहम् आगच्छति इति बालः पृच्छति कृष्णः कदा गृहं प्रति गच्छति प्रत्यागच्छति माता वदति सायम् आगच्छति सायङ्काले सायङ्कालसमये पुनः गृहम् आगच्छति बालः पृच्छति अम्बा अहं कृष्णस्य गृहं गच्छामि बालकः तत्क्षणे कृष्णस्य गृहं गन्तुम् इच्छति माता वदति अद्य मास्तु श्वः गच्छ अद्य न मा गच्छ
न गच्छामः
श्वः गच्छ बालः पृच्छति अम्बा कदा श्वः भविष्यति अग्रे अपि पठामि वा महोदय कदा श्वः भविष्यति बालः उत्सुकतेन पृच्छति उत्सुकेन श्वः कदा भविष्यति अहं कदा गमिष्यामि इति माता वदति इदानीं निद्रां कुरु ततः जागृहि जागरणानन्तरं श्वः भविष्यति माता सोपानेन विवृणोति इदानीं निद्रां कुरु निद्रां कृत्वा एव जागृतं जागरणं भवति तदनन्तरम् एव श्वः भविष्यति इति बालः पृच्छति बालः वदति मातौ अहम् अग्रिम इदानीं बालः अस्तु महोदय बालः वदति इदानीमेव जागर्मि इदानीमेव श्वः भवतु बालः चिन्तयति बालः चिन्तयति यदि सः जागृतं भवति तदा श्वः भवति इति तस्य चिन्तनम् अतः तदा तथा वदति माता वदति वत्स इदानीम् एव अद्य एव ह्यः ह्यः एव श्वः श्वः एव बालः वदति तर्हि इदानीं शीघ्रं निद्रां करोमि इति
तस्य समाधानं करोति माता
सम्यक् अस्ति
एतादृशं क्लिष्टपरिस्थितिः अस्ति खलु तत्र
बालानां
प्रश्नानाम् उत्तरं केवलं माताः एव कर्तुं शक्नुवन्ति खलु अत्रापि तदेव तस्य तदेव दर्शितम् अस्ति अत्र अस्तु
अस्माकमपि तत्र एक नीतिः अस्ति महोदय इदानीम् इदानीमेव श्वः श्वः एव ह्यः ह्यः एव
सत्यं सत्यं वयं सर्वदा श्वः एतत् कुर्मः ह्यः एतत् अभवत् इति चिन्तयामः किन्तु इदानीम् इदानीमेव इति सत्यं सत्यं भगिनि अस्तु तत्र किञ्चित् एव वदामि तत्र अन्याः लकारः अपि तत्र सन्ति तत्र भविष्यति इति अस्ति अपि जागृही अस्ति जागृही किम् अस्ति इति रघुपतिमहोदय वदति वा जागृही
लोट् लकार अस्ति महोदय इदानीं
ब्रूहि इति अस्ति वा महोदय
किं भगिनि
ब्रूहि
ब्रूहि
देहि ब्रूहि
देहि मुकुन्देति इति
लोट् लकारे
लोट् लकार आज्ञात्तक अथवा
लोट् लकार सत्यं
किमपि लोट् लकार
लोट् लकार आत्मनिपदि धातु
पुरुषः महोदय किं
पाहि
त्राहि तत्सर्वं लोट् लकार मध्यमपुरुष एकवचनं अस्तु अग्रिमपुटे यः अभ्यासः अस्ति तत्तु समीचीन एव किन्तु एकवारं पश्यामः तत्र तदपि सम्यक् एव अस्ति अस्तु तत्र वंशीसुध भगिनी अग्रे पठति वा तत्र
आं महोदय कदा इति प्रयोगद्वारा यथोदाहरणं प्रश्ननिर्माणं कुरुत उदाहरणं दीपावली कार्तिकं कार्तिक अमावास्यां भवति अमावास्यायां भवति षष्ठी अस्ति दीपावली कदा भवति अस्तु अस्तु महोदय सर्वे अपि कदा एव भवति महोदय
तावदेव एकवारं पठामः इति
आं महोदय सङ्क्रान्तिः सूर्यस्य मकरराशि प्रवेशदिने भवति सङ्क्रान्तिः कदा भवति
आं महोदय समीचीनं भगिनि अस्तु उषा भगिनि अग्रे
विजयदशमी महानवम्याः अनन्तरदिने आश्वयुजशुक्लदशम्यां भवति विजयदशमी कदा भवति
इदानीं किञ्चित् तत्र नो चेत् बहु सुलभः भवति इति कृत्वा तत्र किञ्चित् प्रश्नं पृच्छामः अत्र भगिनि तत्र विजयदशमी इति अस्ति महानवम्याः इति तत्र विभक्ति का
षष्ठी विभक्ति
प्रथमविभक्तौ रूपं किं
महानवमी
महानवमी समीचीनम् अनन्तरदिने
अनन्तरदिने सप्तमे
सप्तमे
एकवचनम्
अग्रिमपद्मपदम् आश्वयुज दशम्यां दशम्याम् इति
षष्टिविभक्ति नो सप्तमविभक्ति नद्यां
तत्र प्रथमविभक्तिरूपं किमस्ति
दशम्यां
दशम्यां दशमी
दशमी दशमी हा समीचीनं भगिनी हा दशम्याम् इति समीचीनं हा अस्तु अग्रे सूर्यकुमारी भगिनी वदति वा अग्रिमम्
गुरुपूजा आषाढपूर्णिमायाः भवति
पूर्णिमायां
पूर्णिमायां भवति गुरुपूजा कदा भवति
गुरुपूजा कदा भवति अस्तु हा तत्र आषाढपूर्णिमायाम् इति विभक्ति का भगिनी तत्र
पूर्णिमायां पूर्णिमा पूर्णिमायां
युगादिः
चैत्रशुक्लप्रतिपदायां भवति
प्रतिपदायां
युगादिः कदा भवति
इति प्रश्नः अस्तु तत्र चैत्रशुक्लप्रतिपदायाम् इति तत्र विभक्तिका
प्रति सप्तमी महोदय लतायां लतायामपि नद्यां
वदतु नद्याम् इव अस्ति अथवा लतायाम् इव अस्ति तत्र
किन्तु
अत्र प्रतिपदं स्वीकृतमस्ति
एतत् आकारः अस्ति
लतावत् भगिनी समीचीनं हा लतावत् प्रतिपदायां लतायाम् इति हा समीचीनं
इत्युक्ते महोदय
प्रथमदिनं
चैत्रशुक्ल
आशा अमावास्यस्य अनन्तरदिनं
पाद यथा पाद प्रथमपाद
प्रथमतिथि प्रतिपद् भवति
किन्तु अत्र आकार किमर्थं न
प्रतिपद
प्रतिपद इति रूपम् अस्ति तत्र अस्तु अग्रे मधुसूदन मोदी अग्रिमम्
गणेशोत्सवः भाद्रपदशुक्लचतुर्थ्यां
चतुर्थ्यां
चतुर्थ्यां
भाद्रपदशुक्लचतुर्थ्यां भवति
गणेशोत्सवः कदा भवति तत्र गणेशोत्सवः विभक्ति का तत्र
प्रथमाविभक्ति एकवचनं
हा प्रथमविभक्ति एकवचनं समीचीनं हा अपि चतुर्थ्याम् इति अस्ति तत्र तत्र विभक्ति का
चतुर्थ्यां भवति सप्तमी विभक्ति एकवचनम्
एकवचनं प्रथमविभक्तौ रूपं किं
चतुर्थी
हा भाद्रपदशुक्लचतुर्थी चतुर्थ्यां सत्यं समीचीनं महोदय अस्तु अग्रे नरेश महोदय
शिवरात्रि महोत्सवः माघकृष्णचतुर्दश्यां दश्यां भवति शिवरात्रि महोत्सवः कदा भवति
कृष्णचतुर्दश्याम् इति
सप्तमे विभक्ति प्रथमाविभक्ति चतुर्दशी अस्ति
हा चतुर्दशी समीचीनं महोदय अस्तु अग्रे शोभा भगिनी
श्रीकृष्णजयन्ती श्रावणकृष्णाष्टम्यां भवति श्रीकृष्णजयन्ती कदा भवति इति प्रश्नः श्रावणकृष्णाष्टम्यां सप्तमविभक्ति श्रावणकृष्णाष्टमी
सत्यं स्त्रीलिङ्गे अस्ति खलु अष्टमी तत्र अष्टमी प्रायशः क्षम्यताम् अष्टमी प्रायशः मतिशब्दवत् अपि अस्ति
न न महोदय तिथि अष्टमी सर्वे तिथि अस्ति अष्टमी एव प्रथमा
स्त्रीलिङ्गे अस्ति किन्तु
अष्टमी दशमी दशमी नवमी
दीर्घैकारः
तिथि अस्ति तिथि स्त्रीलिङ्गे
अस्ति तिथिः
अतः सर्वे
अस्तु रघुपतिमहोदय भवानेव अग्रे
कृष्णजयन्ती भवति कृष्णजयन्ती कदा भवति कृष्ण अष्टम्यां भवति श्रीरामजन्म भवति श्रीरामजन्म कदा भवति चैत्रशुक्लनवम्यां नवमी इति इकारश्रीलिङ्ग अतः नवम्यां
सप्तमी सप्तमी विभक्तिरूपम् अस्तु समीचीनं वंशी सदा भगिनी
महाभारतयुद्धसप्तमिः अमावास्यां भवति अमावास्यायां भवति
मम पुस्तके कस्मिन् मासे इति न दत्तम् किन्तु
महाभारतयुद्धसप्तमिः अमावास्यायां कुत्र ध्वनि
महाभारतयुद्धसमाप्तिः
समाप्तिः आम् आं महोदय अमावास्यायां सप्तमी उक्तमस्ति महाभारतयुद्धसमाप्तिः कदा भवति अत्र किम् अवधामि महोदय
अमावास्यायाम् इति
सप्तमविभक्तिरूपम्
अमावास्य सर्वे वकार दीर्घ आकार अस्ति अमावस्या नास्ति
अमावास्या इति सर्वे वदन्ति किन्तु अमावास्या
वास्य आकारान्त एव दीर्घ
दीर्घाकारान्त इति रूपम् अत्र अस्ति सत्यं बाणचैतन्य महोदय अग्रे
महोदय प्रतीक्षां करोमि महोदय कृष्णस्य गीतोपदेशः गीताजयन्ति मार्गशीर्ष शुक्लैकादश्यां भवति कृष्णस्य गीतोपदेशः कदा भवति तत्र
एकादश्यां
सप्तमी विभक्ति एकादशी
समीचीनं महोदय अस्तु मधुसूदन महोदय अग्रे
मनुष्याणां क्रीडाशक्तिः क्रीडाशक्तिः बाल्ये भवति क्रीडाशक्तिः कदा भवति
मनुष्याणां क्रीडाशक्तिः कदा भवति समीचीनं
तत्र सप्तमी भक्ति एकवचनं
किं किम्
मनुष्याणां
मनुष्य बाल्ये इति सप्तमी भक्ति एकवचनं विभक्ति अस्ति, मनुष्याणाम् इति तत्र विभक्ति का?
मनुष्याणां द्वितीयविभक्ति
एकवचनं न, मनुष्याणाम् अन्य कोऽपि वदति वा मनुष्याणां विभक्ति का इति? मनुष्याणां दुर्जनानां दुष्टानां दुष्टानाम् इति दृष्टवन्तः पूर्वं, मनुष्याणाम् इति षष्ठी बहुवचनं, समीचीनम्, अस्तु. अग्रे
बाल्ये प्रथमविभक्ति बाल्यं,
बाल्यं
नपुंसकलिङ्गं,
समीचीनम्, अस्तु. उषा भगिनि अग्रे.
बाल्ये इति, क्षम्यतां महोदय, बाल्ये इति सप्तमी विभक्तौ अस्ति?
सप्तमी विभक्ति कदा इति प्रश्नः अस्ति, तत्र तु एव उत्तरं खलु.
परन्तु अधुना क्रीडा आसक्तिः वृद्धे अपि भवति महोदय.
सत्यं सत्यं, अस्तु. अग्रे उषा भगिनी.
तृष्णायाः शान्तिः वृद्धत्वदशायां भवति.
वृद्धत्वदशायां,
वृद्धत्वदशायां
वृद्धत्वम् इति तत्र दुष्टत्वम् इति दृष्टवन्तः खलु, तादृशं
नराणां चिन्ता कदा भवति?
तत्र वृद्धत्वदशायाम् इति सप्तमीभक्तिरूपं, प्रथमविभक्तिरूपं वृद्धत्वदशा वृद्धत्वदशायां नराणाम् इति विभक्ति का भगिनि?
नराणां षष्ठीविभक्ति बहुवचनमस्ति.
इदानीं बालानामपि चिन्ता अस्ति खलु?
महोदय, बाल्ये एव भवति चिन्ता.
पूर्वं बाल्ये चिन्ता नासीत्, किन्तु इदानीं बाल्ये एव चिन्ता अस्ति. अस्तु अग्रे, शोभा भगिनी अन्तिमं.
तृष्णायाः शान्तिः कदापि न भवति. तत्र तृष्णायाः षष्टिविभक्ति, सारी, तृष्णायाः शान्तिः कदा भवति इति प्रश्नः. कदापि न भवति, तृष्णायाः षष्टिविभक्ति अस्ति. शान्तिः कदापि न भवति.
अहं पूर्वम् उक्तवान् कदा यत्र कदा इति प्रश्नः अस्ति, तत्र सप्तमीविभक्तिरूपं भवति इति उत्तरे, किन्तु अत्र कदापि न भवति इति उत्तरम् अस्ति. तत्र सप्तमीविभक्तिरूपम् एव नास्ति अत्र.
कृष्णा इत्युक्ते डिसैर्स् महोदय.
अस्तु अस्तु,
तृष्णायाः शान्तिः कदापि न भवति.
वाक्ये तदस्ति
कृष्णा. अस्तु, किञ्चित् एव समयः अस्ति, किन्तु तत्र
महोदय, सूर्यः कदा उदेति? सूर्यः प्रातः उदेति. अत्रापि सप्तमी विभक्ति न अस्ति न महोदय?
आम्
सत्यं सत्यं भगिनि, किन्तु तत्र प्रातः सूर्य उदेति. चिन्तयामः एकनिमेषः, तत्र सायम् अस्तम् इति, तत्र प्रातः इति
सप्तमी विभक्ति न दृश्यते.
अत्र प्रातः काले इति अस्ति चेत् सप्तमी भवति, काले न.
प्रातः इति अस्ति, तत्र प्रातः इति विभक्ति का तत्र?
प्रातः
पद्मविभक्ति अस्ति महोदय,
किन्तु तत्र क्लेशः अस्ति खलु, कर्तृपदम् एकमेव भवितुम् अर्हति खलु. सूर्यः उदेति इति तावदेव वाक्यं,
प्रातः
परन्तु सप्तमी
प्रातः काले सम्यक्.
हा प्रश्न तु समीचीनम् अस्ति भगिनि. हा तत्र तत्र प्रातः इति प्रथमविभक्तौ अस्ति.
अपवादः अस्ति वा प्रातः काले
सायम् तत्र सायम् अपि तदपि प्रथमविभक्तिरूपमेव अस्ति खलु. शक्नुमः. हा प्रातःकाले सूर्यः प्रातःकाले उदेति,
सूर्यः
सायङ्काले अस्तम् एति इति.
महोदय अहं पश्यामि स्पोकन् संस्कृत महोदय, प्रातर् रकार अन्ते हलन्त अन्ते अपि च अव्ययपदम् अस्ति.
अत्र प्रातः इति सर्वदा अस्तु भगिनि. किन्तु सायम् इति सायमपि तत्र अव्ययं पदं वा?
सायमहं न पश्यामि महोदय.
किन्तु अड्वर्ब् अपि दत्तमस्ति.
अस्तु भगिनि स्क्रोल् डौन् भगिनि. प्रातर् रकार अन्ते
प्रातर् अर्ली इन् द मार्निङ्ग्. किन्तु प्रातः प्रातर् सर्वं दत्तमस्ति. प्रातः अपि अस्ति मार्निङ्ग् एव. प्रातः अड्वर्ब् इति अस्ति.
प्रातर् इति प्रातिपदिकम् इति वा अपि प्रातः इति
प्रातर् अपि अड्वर्ब् इति दत्तमस्ति महोदय.
अपि अपि च लेखन्तु अव्ययपदम् अपि च अपि च.
अस्तु अस्तु अस्तु. हा तत्र किन्तु हा सायम् अतः अहं मम चिन्तनम् अत्र अस्ति. अतः तत्र सप्तमी इति चिन्तितुं शक्नुमः यदि अव्ययम् अस्ति. नो चेत् यदि
महोदय सायङ्काले इति समस्तपदम् अस्ति चेत् अव्ययपदम् अस्ति.
सायङ्काले
सायङ्काले इति दत्तम् अव्ययपदं. सायङ्काले समस्तपदम् अव्ययपदम्
अव्ययपदं
विशेषपद अस्ति भवितुम् अर्हति. अत्र किमपि अस्ति
तत्र अत्र तत्र एकं तु वदामि. यदि विभक्ति कुर्मः सायङ्काले इति अथवा किमपि रामे इति कुर्मः तस्य पदस्य विभक्ति एकवारं कृतं तस्य पुनः विभक्ति न कर्तुं शक्नुमः खलु. विभक्तेः विभक्ति न भवति. हा एकवारमेव विभक्ति कर्तुं शक्नुमः. किन्तु तत्र यदि अड्वर्ब् अड्वर्ब् इति कोऽपि यदि अस्ति चेत् तद् क्रियापदविशेषणम् इति वदामः. किन्तु तत् तत्र तु द्वितीयविभक्ति भवति इति मम चिन्तनम् अस्ति.
सायम् अपि अव्ययपदमेव अस्ति महोदय.
अस्तु तद् नपुंसकलिङ्गे अस्ति अतः प्रथमविभक्ति अथवा द्वितीयविभक्तिरूपं तत्र तु न जानीमः. अस्तु हा अस्तु हा तत्र अहं सम्यक्तया न जानामि तत्र किं भवति इति. यदि कोऽपि करोति चेत् कृपया वदतु.
मोनियर् विलियम्स् संस्कृत डिक्शनरी पश्यामि तत्र अव्ययपदमेव अस्ति महोदय.
अव्ययपदम् अस्ति. अस्तु अतः सप्तमीभक्तिरूपम् इति चिन्तयितुं शक्नुमः. अस्तु भगिनि धन्यवादः. अस्तु समयः जातः. अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः. नमस्कारः.
धन्यवादः
धन्यवादः महोदय.
धन्यवादः.